इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ओडिशा उत्तराखण्ड राज्ययोः अद्य यात्रां करिष्यति। प्रधानमन्त्री अद्य भुवनेश्वरस्य जनता मैदान इत्यत्र 25,000,000 उत्कर्ष ओडिशा मेक इन ओडिशा कॉन्क्लेव इत्येतस्य कार्यक्रमस्य उद्घाटनं करिष्यति। अस्मिन् द्विदिवसीय सम्मेलने 20 द्विदेशान् समेत्य 7,500+ संख्यकाः प्रतिनिधयः भागं ग्रहीष्यन्ति। आयोजनमिदं ओडिशा राज्यस्य अद्यावधि संजातेषु बृहत्तमेषु वाणिज्य सम्मेलनेषु अन्यतमम् अस्ति। सम्मेलनमिदं ऐतिहासिकम् इति सिद्धं भविष्यति तथा च सुदृढायाः जीवन्ततायाश्च अर्थव्यवस्थायाः आधारं स्थापयिष्यति। अनेन सहैव कार्यक्रमोऽयं च कृषकाणाम् आदिवासीनां च कृते विशालान् अवसरान् कल्पयिष्यति इति मन्यते। सम्मेलनावधौ शताधिकेषु MOU इत्येतेषु सन्धिपत्रेषु हस्ताक्षराणि भविष्यन्ति, येषु 3,50,000 जनानां कृते वृत्तिसृजनस्य सम्भावना वर्तते। तदनु प्रधानमन्त्री 38वें राष्ट्रिय क्रीडानाम् उद्घाटनार्थम् उत्तराखण्डस्य देहरादूनं प्रति यास्यति। भारत चीन देशयोः मध्ये विदेश सचिव उपमन्त्री तन्त्रस्य उपवेशनावधौ भारत चीन देशाभ्यां द्विपाक्षिक सम्बन्धानां स्थितिः समीक्षिता, अपि च उभयोः देशयोः मध्ये सम्बन्धान् स्थिरीकर्तुं पुनर्निर्मातुं च कतिपयान् जनकेन्द्रितान् उपायान् स्वीकर्तुं सहमतिः प्रकटिता। अवधेयास्पदं वर्तते यत् विदेश सचिवः विक्रम मिश्री इत्येषः अस्मै उपवेशनाय चीनदेशस्य द्विदिवसीय यात्रायामस्ति। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये सूचितं यत् उभौ देशौ 25,000+ ग्रीष्मर्तौ कैलाश मानसरोवर यात्रां पुनः समारब्धुं निर्णयं गृहीतवन्तौ। विदेश सचिव उपमन्त्री तन्त्र सम्बद्धम् एतद् उपवेशनं वर्तमान सहभागितायाः अनुसारं विभिन्नेषु उपायेषु चर्चां विधास्यति। एतदतिरिच्य उभयोः देशयोः मध्ये प्रत्यक्ष विमानसेवाः प्रारब्धुं सैद्धान्तिकरूपेण सहमतिः निर्मिता। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः दूरभाषमाध्यमेन अमेरिकादेशीयेन राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यमुना साकं वार्ता विहिता, अथ च ऐतिहासिकाय द्वितीय कार्यकालाय तस्मै वर्धापनानि प्रदत्तानि। श्रीमोदी एकस्मिन् सामाजिक सन्देश पटले लिखितवान् यत् भारतामेरिकादेशौ पारस्परिक लाभप्रदानां विश्वासयुत सहभागितानां कृते प्रतिबद्धौ स्तः। असौ अग्रे अवोचत् यत् उभौ देशौ जनानां कल्याणाय, वैश्विक शान्तये, समृद्धये, सुरक्षायै च मिलित्वा कार्यं सम्पादयिष्यतः। सूचना प्रसारण मन्त्री अश्विनी वैष्णवः, संस्कृति मन्त्री गजेन्द्र सिंह शेखावतश्च ह्यः नवदिल्ल्यां वेब्स बाजार, वाह उत्ताद, चैलेंज, वेब्स अवार्ड इत्येतेषां शुभारम्भं कृतवन्तौ। उभौ मन्त्रिणौ 25,000+ वेब्स इत्येतस्य अन्तर्गतम् अन्ताराष्ट्रिय सहभागिताम् आमन्त्रयितुं क्रिएट इन इण्डिया चैलेंज इत्येतस्य प्रथम संस्करणस्यापि शुभारम्भं कृतवन्तौ। पुरुषाणां क्रिकेट प्रतिस्पर्धायां भारतम् अद्य गुजरातस्य राजकोटस्य निरञ्जन शाह क्रीडांगणे तृतीये 20-20 इत्येतस्मिन् अन्ताराष्ट्रिय द्वन्द्वे इंग्लैण्डदलं सम्मुखीकरिष्यति। अस्याः क्रिकेट प्रतिस्पर्धायाः प्रसारणं सायंकाले 7 वादनतो भविष्यति इति वार्ताः।